अथ यमकस्तबकः यशस्विनीम् उपासीय येतुनाथ सतर्मिणे यमकं कथयन्त्यार्या यत्पदं कल्पशाकिनः यशस्विनीम् उपासीय यतुनाथ सतर्मिणे यमकं कथयन्त्यार्या यत्पदं कल्पशाकिनः दया सम्पूर्णहृतया मया कृतम् अनामया रमा गुणेन परमा स्तवं गृह्णाद् वास्तवम् मादस्त्वदङ्ग्रौ मम देहि भक्तिम् मादपरस्मिन् हृदयं प्रसाङ्क्षीत् साकं सशत्रोर्दयिते सुपेन साकं सरीकर्त्य अशुभप्रशान्तिम् रमा रमापतिमपास्यतां मे दयोदयोपेक्षित भक्तमन्दुः मुदा मुदारां च दिशे समृद्धिं नता नतापान् कुरुते यदीक्षा रमे पदाब्जे तव ते मनोरमे न मेयम् उच्चैरितरा गतिर्न मे सुरेश्वरो यद्भजनेन बासुरे पदे पुनाराजति दैत्यलोपदे उदार विभवा भवामय हरा हरादिमहिता हिदाय कमला सुदौघशत्रुसादृशा सुभदया दयालुरधुनाधुना तु दुरितम् गना गना वस्य धना गनासिनः सदा सदा सार सदा सदार्यदीः हिता हिदार्क्ष्यौ रहिता हिता मनोरमे रमे वाच रमे रमे मुदम् सरोरुहा रामगृहां सुमल्लिका सर उरुहारां कमला मधुद्विषः भुजान्दरामोदकरीं नुमक्षमा भुजातरामोनुश्रुतिं व्यदाम्बुधिम् नृपो निरास्त सुमनो जनेयो मनो जनेयो न हिते न मे तदः स्थितां प्रणम्यासम् उरस्यहं तु मुरस्यहं दुःस्वयमिन्दिरे त्वाम् दृष्टिर्दयैकावनिते रमे नः चिनत्तु विष्णोर्वनिते रमे नः भवेदवास्येयम् अपीडनेन कुदक्षधिर्मेयमपीडनेन कुभूभुजां सम्प्रतिमाननेन फलं सुधां सुप्रतिमाननेन शुभं प्रयच्छा विकलं कलेशस्वसः त्वहं स्यां विकलं कलेशः करोदु मोदं कमला समुन्मिषत् कला विलासारसिनी विभाव्यसौ कृपानिधौ वेङ्कटशैलनायके कला विलासारसिनी विभावसौ योगाय योगायति भावुकेन रामेव रामेव हरेस्तवाक्यां नालीक नालीक सवित्रिधाम तेनाक्षदेनाक्षदमाप्यदेतत् ऋणां दृशं सार्थयिदं तवाभूत् रमेय देहा न रमेय देहा प्राप्ता तदा त्वं फणिराजशैल वनारिकेलां न वनारिकेलां त्वया श्रुतस्यात्र परत्र शोचैः अकारि रामे नरकारि रामे गोपालकं त्वं नयसे रसंया गवासमेतं न गवासमेतम् शुद्धया त्वदभिधानसकर्षगम् योगिराजयति नासमन्ततः त्वं विदुर्हरिसखीत्रयी विदोः योगिराजपदि नासमं ततः दानश्रिया विकसितामरसालयेता तापापहां जननितामरसालयेता पादत्वयीं सहि भजेत् रुचिरागमां ते यस्यास्ति निर्मलधियो रुचिरागमां ते वसित सर्वजगत्पदिरक्षया त्रिगसुभं तव लुम्बदिरक्षया हृदयम् उज्झतु देवि न मामकम् त्वनि न मन्यतोऽपि न मामकम् त्यजदि यच्छुफला भवदीनतान् जननि मत्प्रपुरुदीन् भवदीनतान् मिलति मेन यता मदिरं हसा मम तथा दयताम् अदिरं हसा पद्मे स्तुदुप्यं प्रथमा नमस्य स्थिरं फलं के प्रथमा नमस्याः विदाय मान्या महदाम् अहं ताम् हराम् अरीणां महदाम् अहं ताम् भवत्यजेयं तनुतेजसेव्याः जनाय लोकं तयैव दंशीः भवत्यजेयं तनुतेजसेव्याधीः अगोज्जिदं मे गुहृदे विदत्ते निदाय भवदीदृशं नवसरोजपत्रायताम् श्रुतं हरिपुरन्त्रिमां हृदनमद्वित्रायताम् नमां किल विना त्वया पतितमकदं पात्मयः कडोरहृदयो हरिहलजने कडोरहृदयो हरिहलजने स्मतं पात्मयः न स माधवस्तव गुणान् असमायतनेत्रयेव कमलायतने क्षमते विदातुम् अधिदक्षमदेः स्तवनाय हक्पडुमधिस्तवना भवदी जगदम्ब कृतार्थभवो परमा 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 गुहृदोत्रि दडीम् अवनाय कृपा महिताम् अहिताम् अहिताम् अहिता रमा 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 रमात् उपासितं यम् अर्णवात् धियो हरिं वृषा सलोत्तम् एतम् एतम् एतमे त्रादुम् अप्रचुदा वारिजाते क्षणाः त्वं न तान् स्वस्तदे वारिजाते क्षणात् पातकात् इन्दिरे बाहि मां शोभित श्रीरगत्वान्दलो बाहि मां शोभितः मन्दारामन्दारामन्दारामन्दारात्व्याधिघ्ना दैत्यारे शेषात्रिं तं प्राप्ताः सारा वा गालीडा शृङ्गाली यस्यार्तान् सम्भर्तुम् शमदमौ मदमौट्यहरौ वहन् मधुरिपुं दुरिपुण्यकृतां स्थितः विनमदीनम् अदीवतवार्चको निजगदं जगदम्ब जगाति च जननि त्वया परिसरत् सुरकिन्नरकान्तया नयजुषास्तुदया हृदि मे विना किमपि क्लृप्तनमत् नरकान्तया नयजुषास्तुदया त्वमेव सेव्या सुतृषां तव स्थिरं रमेयतो या तव नायके बलम् उरोगि सौरेर्उददेस्त्वम् अग्रहीर् अमेयतो यात् अवनायके बलम् सारसं हृदवदी ससारसं माननां हिमकरोपमाननां देवतां प्रणमतो मुदेवताः वेदनातमहितां न वेदनाम् सा मयि देयात् ईक्षां रमार्तरक्षार्थम् आददेयात् दीक्षां यत्पदजलजनतानां सुगमं दिव्यदामजलजनतानां कमले राजीवानां कुले स्थिता त्वं गदि पराजीवानां जगदारात्यायन्ति श्रेयस्त्वाहं ये कृतादराध्यायन्ते किमपि महोदारेषु प्रथमं मधुवैरिणो महोदारेषु जयति सपर्यायस्य स्थिरफलदात्री सुरतृपर्यायस्य वितृदां हरिणाङ्गेन त्वां प्रतिवदत् आननां हि हरिणाङ्केन प्रणमन् जननि पिडौजा जनो भुवि स्या स्वबन्धुजननि पिडौजाः कलशो दधि कन्यायं पश्यति विद्या स तावत् अधिकन्यायम् जितकथकवितानेन त्रयीविधा लभ्यते च कवितानेन श्रीसेवा नरकेषु त्वयार्त्यथां हरि इदाट्यवा नरकेषु मां विनिपात्य न घोराः शुचो यथा न यदि किन्तु पात्य न घोराः सददविकाराकल्पं प्राप्तोऽहं देहमम्बकाराकल्पम् कुभवात् आसु भवत्या स्वयम् उद्धार्यो रमे सदा सुभवत्या तारा सारा ज्ञानस्थानेन किमस्ततेजसारा ज्ञानः श्रीस्त्वयि मानसं येतत् नस्येम विमुक्तयेऽपि मानसं येतम् व्यक्तिं विन्दे महिताम् इन्द्रादिसुरैनवारविन्दे महिताम् मध्यमतारकवर्ण अभिहिताया नखजितोरुतारकवर्ण हृदसत् हरिद्रव्यादिश्रितम् उच्छिन्नदुर्दरिद्रव्यादिः अतुलकृपाया देव प्रणुता सारमात्रपायात्येव शोषितभवनदयाग सन्त्येषः कसजितोत्प्रभवनदयागः सो नभिभवनदयागः षोडा प्रभवे त्वया भवनदयागः त्वां हि सुधीरा जयति स्तुतांस्तवैर्यप्रमाणिधीरा जयति भवति स धीरा जयति श्रीस्तं स भुवोऽत्र सोदधीरा जयति भक्तदमानाय दया स्वतृषा कमले सुरोतमानाय दया विश्रुतमानायतया समयभवं श्रेयसे समानायतया श्रीपरभागवदीयम् अभिष्टुदासा मुहुन्दभागवदीयम् पणिवृषभागवदीयम् पश्यति भाजते पदं स भागवदीयम् मिथ्यादनयाचार्यारहितेन अन्धस्त्वयातितनयाचार्य त्वं चितनयाचार्य प्रपृदीः इदरानमचिदनयाचार्याः मां हरिरामायतयादृशा पुनात्वेन संविरामायतया प्रतितः रामायतया काके विसुरेः परां कृपामायतया रासेवा रामस्य श्रीत्वं दुहिता नवोऽसवा रामस्य अवनिभवा रामस्य प्रियाः धियं न सदोषवा रामस्य हरिसुरदारुण्येन स्थितिमुषे वल्लिवत् अभूत्यदारुण्येन पृथवन्दारुण्येन द्वीडे दैवदम् असङ्गिदारुण्येन श्रीर्हिदकरवाणीयान् पश्यति तेभ्यो न मांसि करवाणीयान् हृदसोकरवाणीयान् खादुम् अनर्थान् सुमप्रकरवाणीयान् महोदया सारभुजा त्वयातया महोदया सारभुजा त्वया दया विलोपकारादिशयास्तदेविभा इलोपकारादिशयास्तदेविभा सुरक्षया देवहितादृशावमा सुरक्षया देवहितातृशावमा मुदार मे देहि गिराविहानताम् उदार मे देहि गिराविहानताम् केवलं तुच्छविमता हरिणाक्षितवामताः केवलं तुच्छविमता हरिणाक्षितवामताः वैरस्य हानिदानेन मान्या सात्येन साध्यतु वैरस्य हानिदानेन मान्या सात्येन साध्यतु वृषाचले शङ्करदोत्यमान वृषाचले शङ्करदोत्यमान वृषाचले शङ्करदोत्यमानम् अम्बत्यजेर्वष्टि त्रिशो गिरस्ते राजीवायतनागबाहुमहति कुर्यान्मुदेन कृपाः राजीवायतनागबाहुरहकृत् कृष्णो न देवो परः राजीवायतनाविहाभिसुगध सुता तवैवाप्यते राजीवायतनायकं पणिगिरेत् यासौ दयस्रोदसाम् कौमारम् आरचयदश्चबलं तपोष्य सामारमारगनुदस्य वृषाचलेन्दोः रामारमारहितकोपतया कृता स्मते क्षेमारमारविसुदांसु जयत् अवन्याम् कलितम् आसरम् अनासादि यायामहितं न राम रामान्यम् कलितमसारम् अनासाः यायामहितं न रामदं न रामान्यम् सारसेन महितापहारिका सारसेन महितापहारिका सारसेन महितापकारिका नन्दका जयति सानगं रमा त्वं गतिं जननि यच्च वैभवीं मानयामि तरसा महोदयाम् मानयामि तरसा महोदयाम् मानयामि तरसा महोदयाम् मारमातरणि मानमश्यताम् 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 इति श्रीमद्वेङ्कटात्परिविरचिते श्रीमल्लक्ष्मीसहस्रे यमगस्तवः चतुर्दश सम्पूर्णः।